9th paragraph Nityananda Ashtakam Rasanam Adharam Rasikavara Sadvaishnava Dhanam Rasagaram Saram Patita Tati Taram Smaranata Smaranata Param Nityanandashtakam Idam Apurvam Patatiya Tadangri Dvandvabjam Sphuratu Nitaram Tasya Hridaye So the author of the, who is the author of Nityananda Ashtakam? Srila Vrindavan Das Thakur. And he says that Meshi Nityananda Prabhu, see, Meshi Nityananda Prabhu, places lotus feet in the heart of one who lovingly recites this unprecedented Nityananda Ashtaka, which is the reservoir of rasa, the greatest pressure of the most exalted of Rasika, Vaishnavas, and the storehouse of the essence of Bhakti Rasa. This Ashtaka is sung in the melody known as Shikharini. So you saw what is the Falashruti of this song. Srila Vrindavan Das Thakur is such a great devotee of Chaitanya Mahaprabhu Nityananda. He is observing the pastimes of Nityananda Prabhu and he is giving this benediction that if you sing this song, Lord Nityananda will keep his lotus feet on your on the heart of the person who sings this song lovingly on his heart, his or her heart. Okay? Rasanam Adharam
Rasanam Adharam Rasanam Adharam Rasanam Adharam
Rasikavara Sadvaishnavadanam
Rasikavara Sadvaishnavadanam Rasikavara Sadvaishnavadanam Rasikavara Sadvaishnavadanam
Rasanam Adharam Rasikavara Sadvaishnavadanam
Rasanam Adharam Rasikavara Sadvaishnavadanam Rasanam Adharam Rasikavara Sadvaishnavadanam Rasanam Adharam Rasikavara Sadvaishnavadanam
Rasagaram saram patita tatitaram smaranata
Rasagaram saram patita tatitaram smaranata
Rasagaram saram patita tatitaram smaranata
Rasagaram saram patita tatitaram smaranata Rasagaram patita tatitaram smaranata
Rasagaram saram patita tatitaram smaranata Param Nityananda Ashtakam
Param Nityananda Ashtakam Param Nityananda Ashtakam Param Nityananda Ashtakam
Idam apurvam patatiya
Idam apurvam
परं नित्यानन्दाष्टकम् इदमपूर्वं पततिया
परं नित्यानन्दाष्टकम्
इदमपूर्वं पततिया
परं नित्यानन्दाष्टकम्
इदमपूर्वं पततिया
परं नित्यानन्दाष्टकम्
इदमपूर्वं पततिया तदाङ्घ्रिद्वन्द्वाब्जम्
तदाङ्घ्रिद्वन्द्वाब्जम्
स्फुरतु नितरं तस्य हृदये Now I'll take the first two lines together first. रसानम् आधारम् रसिकवरसद्वैष्णवदनम् रसागारम् सारम् पतिततितारम् स्मरणता
रसानम् आधारम् रसिकवरसद्वैष्णवदनम्
रसागारम् सारम्
पतिततितारम्
स्मरणता
रसानम् आधारम्
वैष्णवदनम् ससागारम् सारम् पतत्यतितारम् स्मरणता रसानम् आधारम् रसिकवरसद्वैष्णवदनम् रसागारम् सारम् पतत्यतितारम् स्मरणता परं नित्यानन्दाष्टकम् इदमपूर्वं पतति या तदा तदाङ्घ्रिद्वन्द्वाब्जम् स्फुरतु नितरम् तस्य हृदये
परं नित्यानन्दाष्टकम्
इदमपूर्वं तदाङ्घ्रिद्वन्द्वाब्जम् स्फुरतु नितरम् तस्य हृदये परं नित्यानन्दाष्टकम् इदमपूर्वं पतति या तदाङ्घ्रिद्वन्द्वाब्जम् स्फुरतु नितरां तस्य हृदये परं नित्यानन्दाष्टकम् पूर्वं पतति या तदाङ्घ्रिद्वन्द्वाब्जम् स्फुरतु नितरां तस्य हृदये रसानम् आगारं रसिव I'll say the full paragraph once and then all of you tell after me three times. रसानम् आधारं रसिकवरसद्वैष्णवदनम् रसागारं सारं पततिततितारं स्मरणता परं नित्यानन्दाष्टकमिदमपूर्वं पतति या तदाङ्घ्रिद्वन्द्वाब्जं स्फुरतु नितरं तस्य हृदये
रसानामाधारम् रसागारं सारं पतिततितारं स्मरणता परं नित्यानन्दाष्टकमिदमपूर्वं पतति या
तदाङ्घ्रिद्वन्द्वाब्जं स्फुरतु नितरं तस्य हृदये
रसानाम् आधारं रसिकवरसद्वैष्णवदनम्
रसागारं सारं पतत्यतितारं स्मरणता
परं नित्यानन्दाष्टकमिदमपूर्वं
पतति या तदाङ्घ्रिद्वन्द्वाब्जं स्फुरतु नितरं तस्य हृदये रसानम् आधारं रसिकवरसद्वैष्णवदनम् रसागारं सारं पततिततितारं स्मरणता
परं नित्यानन्दाष्टकमिदमपूर्वं
पतति या तदाङ्घ्रिद्वन्द्वाब्जं स्फुरतु नितरं तस्य हृदये भजे
नित्यानन्दं भजनतरुकान्तं निरवदे भजे नित्यानन्दं भजनतरुकान्तं निरवदे
श्रीनित्यानन्दरां की
जय
शिलवृन्दावन दास ठाकुर की
जय
शिलप्रभुपाद